सर्वेभ्यः नमस्काराः. सिद्धान्तकौमुद्याः अनन्तरं नपुंसकलिङ्गत्वकरणे तृतीयः पाठः, सेप्टेम्बर् मासस्य तृतीयः दिनाङ्कः. येनाक्षसमां नायम् अधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मिन्नित्रयम् नित्रयन्नस्कृत्य चतुर्थीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. मकारान्तेषु नपुंसकलिङ्गेषु स्मः. तत्र ब्रह्मन् शब्दः अधीतः. ब्रह्मब्रह्मणि ब्रह्माणि साधारणः शब्दः, तत्र अल्लोपस्य प्रसक्तिः अपि नास्ति मकारान्तसंयोगत्वात्. तृतीयाविभक्तेः आरभ्य पुल्लिङ्गवद्रूपाणि भवन्ति. आदौ तु ब्रह्म ब्रह्मणि ब्रह्माणि इति रूपं, ततः नकारान्तेषु नपुंसकलिङ्गेषु अग्रिमशब्दः अहन् शब्दः. अहन् शब्दात् सुप्रत्ययः, सुप्रत्ययस्य समोर्नपुंसकात् इत्यनेन लुग् भवति. अग्रे तत्र सिद्धान्तकौमुद्याम् अहर्भाति इति अग्रे किमस्ति इति इत्युक्ते परत्वं, परत्वेन अन्यत् किमपि शब्दं स्वीकृत्य दत्तम्, अतः भाति इति अग्रे अस्ति. तद् कन्सिडर् देर् दट् इस् टु इलस्ट्रेट् द नेक्स्ट् सूत्र विच् ही इस् टेकिङ्ग्. अहन् इति क्षम्यतां, रोसुपि इति सूत्रमस्ति. अन्नः रेफादेशः स्यात् न तु सुपि इति पूर्वमेव अधीतं. वि हेव् आल्रेडि स्टडीड् दिस् इन् द सन्धिप्रकरणं. सो अहन् हेस् टु पासिबिलिटीस्, इट् गेट्स् रुत्व इन् सम् केसस् एण्ड् इट् गेट्स् रेफादेश इन् अदर् केसस्. There is a sutra called Ahan, which we are studying next, which says that the word Ahan gets Ru as the Adesha, at the end of a Pada. So actually that should have been the case here. There is this another sutra, Ro Supi, which says Raha Asupi. Asupi Pare Anhaha Repha Adeshaha Syat. Instead of Ru, you get Repha. Even though the resultant, this is the repha, is the same in case of both this rosupi and ahan. It makes a difference whether it is ru or not. There are cases where there are specific karyas which happen for ru and not for a plain repha. We see that later. So now, asupi pare, that is natu supi, supi pare na bhavati repha adeshaha, tadbhinne, so if there is something else, you get Repha as the Adesha for Ahan. Now that is why he has taken Bhati as the next word. Paratvena Bhati ityatra Bhakaraha asti. Soho Luka Luptatvat atra Supratyaha nasti. There is no Supratyaha because the Su has been deleted by Luk. So now when you have Ahan and Bhati, the Nakara of Ahan is replaced by Repha, so we have Ahar Bhati. If you had simple Ahan, that is, if there is nothing following, if you have just Ahan, Rosupi ityanena Repha Deshaha Bhavati, Tasya Karasanayor Visarjaniyaha ityanena Visarjaha Bhavati. So why Dikshita takes this? Is whether you have Repha or Rutva in this particular case, the form Prathama Ekavachane to Ahaha Itseva Bhavati. Tatra Bhedaha Na Bhavati. Agre Kimapi Asti Che Bhedaha Asti Iti Pradarshiyetu Meva Dikshitaihi Idam Udaharanam Svikritam. Idanim Ahar Bhati Ityatra Yada Bhakaraha Paratvena Asti Yadi Atra Rutvam Priyate. If we do Rutva here, you have Ahar Ru Bhati. what would be the form? Would we still get aharbhati or would there be a difference? What we are doing now is, we are using rosupi to get repha instead of rutva. We are overruling rutva. Padante ahan shabdasya rutvam bhavati iti utkargikam sutram. Supi pare rutvam na bhavati tad badhitva repha deshaha bhavati. Yada sup nasti tada repha bhavati iti rosupi ityanena kriyate. Atta tu rosupi ityanena repha krataha. Yadi rutvam kratam syat. Tarhi kim rupan syat. What would have happened if we have done rutva in the case? Anyway, you are getting r, ahar, right? So what would have been the difference? Okay, what will happen if you have Chandraha Bhati? What is the Sandhi? Kim Rupam. Chandraha Bhati. I should not do the Visarga. Sandha Uprate Kim Bhavati. What is the Sandhi Karya? Satyam. Chandro Bhati iti Rupam Bhavati. Kim Sutram Kim Chandro Bhati iti. Adoror Aplute Aplute iti tu Aplute Ati Pare Akare Pare Eva Bhavati. What is the sutra in Chandra Bhati? The form is correct. If you have Chandraha Bhati, I mean, the resultant is Chandra Bhati. Kim sutram? Going back to the basics, Pancha Sandhi Prakarana. किं भवति अत्र सत्यम् एतत् सत्यम् इदानीं चन्द्रः भाति इत्यत्र किं भवति इति मम प्रश्नः चन्द्रो भाति इति रत्तं किं सूत्रं किम् इति उकारः केन सूत्रेण इति सत्यम् चिन्तनम् सत्यम् अन्ये वदन्ति हसित इति सूत्रम् भो भगो अपूर्वस्य योषि इत्येतत् अशिपरे एव भवति अतः तु हश् वर्णः हशिच इत्यनेन उत्तमं भवति यदि चंद्र सु भाति इति भवति सतजुषोरुः इत्यनेन विक्रियते चंद्रर भाति इति कृते रोः हसित इत्यनेन उत्तमं भवति चंद्र उ भाति ततः अकारोकारयोः गुणे कृते चंद्रो भाति एवमेव अत्रापि यदि ऋत्वं स्यात् इफ वी डू ऋत्वा वै अहन् अह ऋ भाति इति कृते तस्य हसित इत्यनेन उत्तरे कृते अहो भाति इति रूपं स्यात् That would have happened if we do Rutva here. Instead, since we are doing Repha, Hashita applies only in case of Ru, Ato Roho. So, it applies only where the Repha has been derived from Ru, and therefore Hashita will not apply here. So, that is the intent of Dikshita in giving an example as Aharbhati instead of simple Ahaha. The form in Prathama Ekavachana is Ahaha. So, he should have actually given Ahaha. But if he gave Ahaha, he could not point out the significance of using Rosupi and not Ahan. So he uses Aharbhati and says, this should be the form and therefore it has to be Repha and not Rutva. So the form is Ahaha. You do Rosupi if you needed the actual form. Ahan Supratyaha, Rosupi Ittinena Repha Deshaha, Kharvasanayo Visarjaniyaha Ittinena Visargaha, अहः इति प्रथमैकवचने रूपं सत्यं किन्तु रोसुपि इत्यस्य प्रयोजनं दर्शयितुम् एव अहर्भाति इति उदाहरणं दत्तम् अस्तु अग्रे अहः प्रथमाविभक्तौ द्विवचने विभाषानिष्योः किं सूत्रमिदं कस्य विभाषा उच्यते विभाषा निश्योः इति सूत्रं पूर्वमेव अधीतम् कस्य विभाषा किमपि विकल्पेन भवति इति सूत्रेण उच्यते निश्योः नि प्रत्यये परे शी परे इदानीं द्विवचने प्रथमविभक्तौ द्विवचने अहन् औ इत्यस्ति नपुंसकाच्च इत्यनेन औङः शी आदेशः अहन् ई इत्यस्ति विभाषा विकल्पेन किमपि कार्यं भवति किं कार्यम् सूत्रं स्मरन्ति वा tell you where we have used the sutra. Rajan Shabdaha Saptam Ekavachane Rajni Rajani Iti Rupadvayam Satra Idam Sutra Upayuktam Kasya Lopaha Hema Vadadi Lopasya Vibhasha Yadi Kasya Lopasya Vibhasha Akarasya Allopo Naha भसंज्ञायां सत्या अनः अकारस्य लोपः भवति इति उच्यते अल्लोपो अनः इत्यनेन विभाषा निश्योः ङौ परतः श्यां परतः च तस्य अल्लोपस्य विभाषा अनेन सूत्रेण उच्यते अत्र भसंज्ञा अस्ति वा अहन् ई इत्यस्ति नपुंसकलिङ्गे सुतः सर्वनामसंज्ञा नास्ति सुड् अनुपुंसकस्य इति उक्तत्वात् षि इत्यस्यैव सर्वनामस्थानम् षि सर्वनामस्थानम् अतः अत्र औङः सर्वनामस्थानसंज्ञा नास्ति यचि भम् यकारादिषु अजादिषु अप्रत्ययावधिषु स्वादिषु अजादिप्रत्ययत्वात् औङ् प्रत्यये परे प्रकृतेः भसंज्ञा अस्ति भसंज्ञायां सत्याम् अल्लोपो नः इत्यनेन अल्लोपे प्राप्ते विभाषा निश्योः इत्यनेन विकल्प्यते अन्नी अहनी इति रूपद्वयम् अकारस्य लोपे कृते अनः अकारे लुप्ते अन्नी इति रूपम् अकारस्य लोपाभावे अहनी इति रूपम् अहः अन्नी अहनी अग्रे अहानि अहानि इति कथं भवति रूपसिद्धिः Anybody try? How do we get Ahani? Very easy. We already did Brahmani last week. Kim Karyam? Somebody? अहानि इति कथम् का प्रक्रिया नपुंसकस्य झलसः इत्यनेन दीर्घः न भवति किं भवति नपुंसकस्य झलसः इति सूत्रं नुमागमस्य सूत्रं झलन्तस्य अदन्तस्य इति नुमागमः भवति इति अत्र नुमागमस्य अपेक्षा नास्ति स्वयं नकारः अस्ति अहन् जस् जस्प्रत्ययस्य जश्यसोः शिः इत्यनेन शि अहन् इ नुमागमः नापेक्ष्यते स्वयं नकारः अस्ति किं केवलं दीर्घः कथं दीर्घः अहन् इ दीर्घविधायकं किं सूत्रम् सत्यं सर्वनामस्थाने च असम्बुद्धौ इत्यनेन उपधा दीर्घः नान्तस्य उपधायाः दीर्घः स्यात् असम्बुद्धौ सर्वनामस्थाने परे इत्यनेन उपधादीर्घे अहानि इति रूपम् अग्रे अहन् भ्याम् अहः अन्नी अहनी अहानि पुनः अहः अन्नी अहनी अहानि प्रथमा द्वितीया विभक्त्योः समानं रूपम् अह्ना तृतीया एकवचने अहन् आ इति स्थिते अल्लोपो नः इत्यनेन अकारस्य लोपः अन्ना अहन् भ्याम् इति स्थिते पुनः पदान्तत्वम् अस्ति स्वादिशसर्वनामस्थाने इत्यनेन पदसंज्ञायां सत्याम् अहन् इति सूत्रम् एकपदात्मकं सूत्रम् ससशो रुः इत्यस्मात् रुः इति अनुवर्तते अहन् इत्यस्य रुः स्यात् पदान्ते पदान्ते इति तत्रापि अस्ति परान्तस्य तस्य शब्दस्य च रुः स्यात् तदेव अनुवर्तते अत्रापि परान्ते अहन् शब्दस्य रुत्वं भवति अस्य अपवादत्वेन रोसुति इति उच्यते सो अहन् भ्याम् इत्यस्ति परान्तत्वात् अहन् इत्यनेन रुत्वम् अहर् भ्याम् इदानीम् अत्र हसि च ह्रस्वावर्णात् परस्य रोः हसि परे उकारादेशः भवति इत्यनेन उत्वे अह उ भ्याम् आद्गुणः इत्यनेन गुणे कृते अहोभ्याम् इति रूपम् अह्नः अहोभ्याम् अहोभिः अह्ने अहोभ्याम् अहोभ्यः इत्यादीनि रूपाणि सो वेर् एवर् The Pratyaya starts with Adhadi, we have Allopo Naha. If it is a Haladi Vibhakti, we have Ahan. And there is Rutva. इह अहः अहोभ्याम् इत्यादौ रत्व रुत्वयोः असिद्धत्वात् नलोपे प्राप्ते अहम् इति आवर्त्य एकेन नलोपाभावं निपात्य द्वितीयेन रुट् विधेयः अस्ति. नलोपः प्रातिपदिकान्तस्य इति सूत्रमस्ति अष्टमाध्यायस्य द्वितीयपादे सप्तमं सूत्रम्. प्रातिपदिकसंज्ञकं यत् पदं तदन्तस्य लोपः स्यात्. यथा राजन् इत्यस्ति तत्र उपधादीर्घे कृते सुप्रत्यये लुप्ते प्रातिपदिकत्वमपि अस्ति पदसमयापि अस्ति. नकारस्य नलोपः प्रातिपदिकान्तस्य इत्यनेन लोपे राजा इति भवति. अस्माभिः किं कृतम्? अहन् इत्यनेन रुत्वं कृतं कुत्र? अहोभ्याम् इत्यत्र. अथवा रोसुपि इत्यनेन रेफादेशः क्रियते. तदग्रिमं सूत्रम् अष्टमाध्यायस्य द्वितीयपादे अष्टषष्टितमं नवषष्टितमं च सूत्रम्. तदुपयुज्य ऋत्वं क्रियते अथवा रेफादेशः क्रियते. उभयमपि नलोपदृष्ट्या असिद्धम्. सो बोत् ईदर् रेफादेश आर् रत्व ऋत्वयोः असिद्धत्वात् बोत् आफ् दीस् कार्यस् आर् असिद्ध टु नलोपः प्रातिपदिकान्तस्य. So, as far as that sutra is concerned, there is nakara. Ahan ityatra nakare eva asti. Iti nalopah pradipadikantasya, iti sutra drishtya, nakara asti. Kim syat? Nalopah syat. Iha ahaha ahobhyam ityadav, ratvarutvayohu asiddhatvad nalope prapte. So, there is the possibility of getting a nakara. So, he says, अहन् इति आवर्त्य. अहन् इति सूत्रमस्ति. दट् सूत्र इस् रिपीटेड्. आवृत्ति इस् टु रिपीट्. सो वि रिपीट् द सूत्र. एकेन नलोपाभावं निपात्य. इदानीं सूत्रद्वयम् अस्ति अहन् इत्येव. किं प्रयोजनम् इत्युक्ते प्रथमसूत्रेण नलोपाभावः निपात्यते. अहन् इत्युक्ते अहन् इत्यत्र नकारः भवति, नकारस्य लोपः न भवति इति प्रथमस्य सूत्रस्य अर्थः. द्वितीयसूत्रेण किमुच्यते? अहन् इत्यनेन अहन् इत्यस्य रुः स्यात् पदान्ते. पदान्ते तस्य अहन् शब्दस्य ऋत्वं भवति इति द्वितीयसूत्रेण उच्यते. प्रथमसूत्रेण न लोपाभावः निपात्यते. सो दिस् निपातना आफ् न लोपाभाव बै सेयिङ्ग् अहन्. पाणिनि सेयिङ्ग् दट् अहन् इत्यत्र नकारः भवति, नकारस्य लोपः न भवति. सो दट् निपातना विल् ओवर् रूल् नलोपः प्रातिपदिकान्तस्य. निपातनात् अत्र नलोपः न भवति इति प्रथमेन सूत्रेण उच्यते. द्वितीयेन अहन् इति सूत्रेण ऋत्वं विधीयते इति नलोपं निवारयितुम् एकः उपायः. सो दिस् आवृत्ति आफ् सूत्रास् आर् विभाग आफ् सूत्रास् आर् आल् इष्टसिद्ध्यर्थम्. वेरेवर् देर् इस् सम् प्राब्लम् टु ओवर् रूल् इट् द भाष्यकार हिम्सेल्फ् सम् टैम् सजेस्ट् सच् रूल्. सो यु केनाट् सिम्प्लि रिपीट् एनी अदर् सूत्र. सो कुतश्चित् एवमेव तस्यैव सूत्रस्य अर्थद्वयम् अस्ति. एक्चुलि द सूत्र इट् सेल्फ़् डस् टु थिङ्ग्स् बट् टु मेक् थिङ्ग्स् क्लियर् इट् इस् आवृत्तिः. सो वि यूस् द सूत्र ट्वैस्. For the first time, we are using it to tell that there is no nalopa in case of ahan. And the second time, we say, padante tasya rupam bhavati. Iha ahaha ahobhyam ityadav, ratva rutvayohu asiddhatvat nalope prapte, ahan iti avartya, ekena nalopa bhavam vipatya, dhitiyena ruhu vidheyaha. तदन्तस्यापि रत्वरुत्वे. इदानीम् अहन् इत्यनेन यः यद्ऋत्वं विहितं, रोसुपि इत्यनेन रेफादेशः वा विहितः, तदन्तस्य अपि भवति. तस्य च तदन्तस्य च इत्यनेन तदन्तस्यापि. सो इवन् अ वर्ड् विच् इस् एण्डिङ्ग् इन् अहन्, नाट् जस्ट् द वर्ड् अहन्, इवन् वर्ड् विच् आर् एण्डिङ्ग् विच् दट् इवन् अट् द एण्ड् आफ् अ समास अहन् शब्द विल् गेट् तदन्तस्यापि रत्वरुत्वे. दीर्घाणि अहानि यस्मिन् सः दीर्घाः निदाघः. पुल्लिङ्गत्वेन विशेषणं दत्तं. दीर्घाणि अहानि यस्मिन् सः इति समासः.
दीर्घाहन् इति प्रातिपदिकम् समासत्वात् कृतज्ञसमासश्च इत्यनेन प्रातिपदिकत्वे दीर्घाहन् इत्यस्ति. कथं भवति? इह हल्यादिलोपे प्रत्ययलक्षणेन असुपि इति निषेधात् रत्वाभावे रुः तस्य असिद्धत्वात् नान्तलक्षणः उपधादीर्घः. किमस्ति इति पश्यामः. दीर्घाहन् सु सुप्रत्ययः अयं पुल्लिङ्गशब्दः. दट् इस् वै शुड् रिमेम्बर् ऐ मीन् दिस् दीर्घाणि अहानि यस्मिन् इति लिङ्गत्रयेऽपि भवितुम् अर्हति. बहुव्रीहिसमासः सर्वदा त्रिषु लिङ्गेषु अपि भवितुम् अर्हति. कः विशेष्यः इति दृष्ट्वैव किं लिङ्गम् इति वक्तुं शक्यते. डिपेण्डिङ्ग् आन् द विशेष्य बहुव्रीहिसमास इस् आल्वेस् अन्यपदार्थ देर् इस् अ विशेष्य डिपेण्डिङ्ग् आन् दट् इट् केन् एक्सिस्ट् इन् आल् त्री लिङ्गस्. इन् नपुंसकलिङ्ग देर् इस् नो डिफरेन्स् इन् फार्म्. इफ् यु आर् डूयिङ्ग् दीर्घाणि अहानि यस्मिन् तत् अत्र यथा दीर्घाः दीर्घाणि दीर्घाहानि इत्यादि रूपाणि भवन्ति. बट् इन् पुल्लिङ्ग देर् इस् संथिङ्ग् स्पेशल्. दट् इस् वै हेस् टेकन् पुल्लिङ्ग एस् एन् एक्साम्पल्. तदन्त दीर्घाणि अहानि यस्मिन् सः इति पुल्लिङ्गे पुल्लिङ्गे लुक् न भवति. स्वमोर् नपुंसकात् इत्यस्य प्रवृत्तिः न भवति नपुंसके एव. पुल्लिङ्गे किं भवति? हल्क्याभ्यो दीर्घात् सुतस्य पृक्तम् हल् इत्यनेन सोः लोपः. हल्क्याभ्यः इस् नाट् लुक्, इट् इस् अ प्लेन् लोप डिलीशन्. देर् इस् अ डिफरेन्स् बिट्वीन् लुक् एण्ड् लोप एस् यु नो. तत्र किं भवति? किम् उक्तम् इदानीं दीक्षितैः? इह हल्क्यादिलोपे हल्क्यादिना सुप्रत्ययस्य लोपे कृते प्रत्ययलक्षणेन द डिफरेन्स् बिट्वीन् लोप एण्ड् लुक् इस् लुकि कृते नलुमताङ्गस्य इत्यनेन प्रत्ययलक्षणस्य निषेधः भवति. अत्र तु प्रत्ययलक्षणस्य निषेधः नास्ति. सो वै प्रत्ययलक्षण वि स्टिल् कन्सिडर् दट् सुप्रत्यय इस् देर्. इफ् सुप्रत्यय एक्सिस्ट् रोसुपि इति न प्रवर्तते. असुपि परे सुपि परे रोसुपि इति रेफः न भवति. किं भवति तर्हि? अहन् इत्यनेन रुत्वमेव भवति. प्रथमाविभक्तौ एकवचने सुप्रत्यये परे अपि पुल्लिङ्गे रुत्वमेव भवति न तु रेफः. दट् इस् द फस्ट् पायिण्ट् हि विशस् टु मेक्. सः किं भवति? हल्यादिना लोपे कृते अहन् इत्यनेन रुत्वं भवति. दीर्घाहर् इत्यस्ति. पुनः तस्य असिद्धत्वेन नौ सिन्स् अहन् रुत्व इस् असिद्ध तु सर्वनामस्थाने च असम्बुद्धौ. एतत् सूत्रं सपात् सप्ताध्याय्यामस्ति. अहन् इति त्रिपाद्यामस्ति. सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा. सो बिकास् आफ् असिद्धत्व सर्वनामस्थाने च असम्बुद्धौ इति सूत्रदृष्ट्या अत्र नकारः अस्ति. नान्तस्य उपधायाः दीर्घः स्यात् असम्बुद्धौ सर्वनामस्थाने परे इत्यनेन उपधादीर्घः भवति. दीर्घाहार् तस्य असिद्धत्वात् उपधादीर्घः. सो दीर्घाहार् खर्वसानयोर्विसर्जनीयः इत्यनेन विसर्गे कृते दीर्घाः इति प्रथमैकवचने रूपं पुल्लिङ्गे. पुल्लिङ्ग द फार्म् वुड् बि दीर्घाः. अगेन् इन् दीर्घाः यु केनाट् मेक् औट् इफ् द रेफा हेस् बीन् डिरैव्ड् फ्रम् रु आर् फ्रम् र. अत्र रत्वं भवति वा रुत्वं भवति वा इति वक्तुं न शक्यते. अत एव किं दत्तं? दीर्घाहार् निराघः इति उदाहरणं दत्तं दीक्षितैः. अत्र भो भगो अघो अपूर्वस्य योषि रोः सिन्स् इट् इस् अ रुत्वा द रेफा हेस् बीन् डिरैव्ड् फ्रम् रु. भो भगो अघो अपूर्वस्य योषि इत्यनेन अत्र यत्वं भवति. सो द रेफा आफ् द रु इस् रिप्लेस्ड् बै यिर्. हरि सर्वेषाम् इत्यनेन तस्य यकारस्य लोपे दीर्घाः निदाघः इति रूपम्. इफ् रेफा हेड् बीन् द आदेश हियर् द फार्म् वुड् हेव् बीन् दीर्घाहार् निदाघः. रेफः श्रूयेत. द यत्वा अण्ड् लोप वुड् नाट् हेव् अकर्ड्. सो टु इलस्ट्रेट् दट् हियर् इट् इस् रुत्वा अण्ड् नाट् रेफ एण्ड् द रू इस् कन्वर्टेड् टु यकार एण्ड् डिलीटेड्. He gives this example, Dirghaha Nidaghaha.
Right? So going back to that sentence, iha halgyadi lope, supratyaye pare, halgyadina supratyasya lope, pratyayalakshanena asupi iti nishedhat ratvabhave, rephadeshaha na bhavati, ruhu ahan itte ruttvam bhavati, tasya asiddhatvat, tasya ruttvasya asiddhatvat, nanta lakshanaha upadhati, nakaraha asti iti drishtya, सर्वनामस्थाने सम्बुद्धौ इत्यनेन उपसंदीर्घः भवति दीर्घाः इति रूपम् अग्रे अश्वर्णः अस्ति इत्यतः भो भगो अको पूर्वस्य योषी इत्यनेन यत्त्वं तस्य लोपः दीर्घाः दातः इति उदाहरणम् सम्बुद्धौ तु हे दीर्घाहो निदाघ सम्बुद्धौ किं भवति हे दीर्घाहन् हल्ज्ञादिना सुप्रत्ययस्य लोपः असम्बुद्धौ इति निषेधः सर्वनामस्थाने च असम्बुद्धौ इत्यस्ति अतः उपधादीर्घः न भवति हे दीर्घ अहन् इत्येव भवति अहन् इत्यनेन रूपं हे दीर्घाहर् हे दीर्घाहः इति रूपं दीर्घाः अग्रे निदाघ इति यदि अस्ति हे दीर्घाहर् निदाघ हसि च इत्यनेन रोः उत्तमं भवति हे दीर्घाः उ निदाघ आद्गुणः इत्यनेन गुणे कृते हे दीर्घाहो निदाघ प्रथमैकवचने दीर्घाः निदाघ भवति रूपं दीर्घाः सन्धौ दीर्घाः निदाघ अत्र दीर्घाः इति रूपं दीर्घाहो निदाघ इति सन्धौ दीर्घाहानौ दीर्घाहानः दीर्घाहन् इत्यस्मात् औ प्रत्यये दीर्घाहन् औ परान्तत्वं नास्ति अतः रत्वरत्वयोः प्रसक्तिः अपि नास्ति उपधादीर्घः सर्वनामस्थानत्वात् उपधादीर्घे दीर्घाहानौ दीर्घाहानः दीर्घाह्ना तृतीयैकवचने अल्लोपो नः इत्यनेन अल्लोपः दीर्घाह्ना इति भवति पुनः भ्यामि अहोभ्याम् इति ऋत्वं हसि च इति ऋत्वं गुणः मेनि क्वेश्चन्स् इन् अहन् द्वितीया बहुवचने किं भवति इति एकः प्रश्नः दीर्घाह्नः इत्येव भवति न तत्र किं सर्वनामस्थानत्वं नास्ति औ सुट् सुटः एव सर्वनामस्थानत्वं दीर्घाः दीर्घाहानौ दीर्घाहानः दीर्घाहानौ दीर्घाहानौ दीर्घाहन् शस् तिष्ठते भसंज्ञा अस्ति अल्लोपो नः इत्यनेन अल्लोपे दीर्घाह्नः राज्ञः इति वत् दीर्घाह्नः इति रूपं पुनः दीर्घाह्नः अन्यः कोऽपि प्रश्नः सत्यम् वाशरी इत्यनेन किं भवति वाच आचरे इत्यनेन किं भवति तस्य विकल्पः इदानीम् अहन् सु इत्यस्ति अहन् इति सूत्रेण रुक्तं भवति अहर् सु खरसमयोर्विसर्जनीयः इत्यनेन विसर्गः अहः सु इदानीं किं भवति वाशरि इति भवति वा विसर्जनीयस्य सः इति भवति वा I just wanted to know what does Vashari tell? What is the sutra for Vashari? Vashari will apply here. Don't worry, I mean, you do get there. Hello? Correct, this is correct. Right. So, Vashari will apply here. We will get two forms. One is Ahasu and the other is Ahasu with two sakaras. That is why I clarified, that is not the reason why I am asking the sutrata. This is correct. We do get Vashari here. But my question is, what exactly is the karya of Vashari? विसर्गस्य स्थाने विसर्ग एव भवति द जनरल् टेण्डेन्सि इस् वाशरि इत्यनेन सकारस्य विकल्पः न दट् वास् मै पायिण्ट् ऐ मीन् दट् वास् द रीसन् ऐ आम् वाशरि इत्यनेन विसर्गस्य स्थाने विसर्गः एव विधीयते विकल्पेन शरीपरे विसर्गस्य स्थाने विसर्ग एव वा भवति वाशरि इत्यनेन विसर्गस्य स्थाने विसर्गे कृते अहः सु इति रूपम् तदभावे पक्षे वाशरि इति विकल्पः पक्षे विसर्जनीयस्य सः इत्यनेन सकारे कृते अहस्सु इति रूपम् वै ऐ स्ट्रेस् अपान् द पायिण्ट् इस् द जनरल् टेण्डेन्सि मि जनरल् टेण्डेन्सि इस् टु थिङ्क् दट् वाशरि इस् सत्त्वविकल्प वाशरि इत्यनेन विकल्पेन सत्त्वं भवति इति उक्त्वा अहस्सु अहहसु इति रूपं रूपद्वयम् इति भ्रमः भवितुम् अर्हति So, I mean, it is very natural. Yes. Tell me. Satyam. Right. That is why, I mean, it is all right. I myself had this Brahma. Vashari is not sattva vikalpa. It does not say vikalpena sakara. I mean, it is very easy to think that way. Okay, you have Vashari, so you get one form with sakara and another form without sakara. It is very clear. But Vashari does not give sakara vikalpa. You still have to apply visarjaniyasya saha. Vashari ityanena visargasya sthane visargaha eva bhavati. Tada ahaha su iti rupam. पक्षे वाशरि इति विकल्पः विकल्पेन विसर्गः भवति यदा वाशरि इति न भवति तदा विसर्जनीयस्य सः इत्यनेन सकारः भवति अहस्सु इति रूपम् ओके एनी अदर क्वेश्चन या Yes. Huh. As a zip pin. That is sharpare khari. That is an apavada to kupoka kocha. Whenever there is a visarga is followed by kavarga or there is a sikma mulya or prabhaniya, sharpare. When that khar is followed by a shar, like in case of ksha. Kaha kshamaha. Kakarat paratvena sharasti cheta. Visargasya sthane visarga eva bhavati. Sikvamuliyah padmaniyova na bhavati. Eta. Satyam namaha kshatrubhya. Iti. So that is the exam application of sharpare visarga. Okay. So now proceeding with nakaranta napumsakalinga. Nakaranta napumsakalinga dandin shabdha. अतः इने धनौ इति इनि प्रत्ययान्तः दण्डः अस्य अस्ति इति तद्धितः दण्ड शब्दात् इनि इति प्रत्ययः क्रियते दण्डिन् इति प्रातिपदिकं तद्धितान्तं प्रातिपदिकं दण्डि इति प्रथमैकवचने दण्डिन् शब्दात् सुप्रत्ययः क्रियते सोः समो नपुंसकात् इत्यनेन लुक् भवति ततः नकारस्यापि लोपः गॉट टू मेंशन इट हियर न लोपः प्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपे दण्डि इति रूपम् दण्डि दण्डिनी दण्डिन् औ इत्यस्ति औङः शी नपुंसकाच इत्यनेन शी आदेशः सर्वनामस्थानत्वं नास्ति अतः उपधादीर्घः अपि न भवति दण्डि दण्डिनी दण्डीनि जसः षि प्रत्ययः जशतो षिः इत्यनेन दण्डिन् इ इति स्थिते इन्हन् पूषार्यं नाम शौ इति नियमसूत्रम् अस्ति सर्वनामस्थाने सर्वं बुद्धौ इत्यनेन उपधादीर्घे प्राप्ते अनेन नियमः क्रियते इन् हन् पूष अर्यं नाम एतेषां चतुर्णां श्यामेव उपधादीर्घः न तु अन्यस्मिन् सर्वनामस्थाने सो दीस् गेट् उपधादीर्घ ओन्लि इन् केस् आफ् षि एण्ड् नाट् इन् अदर् सर्वनामस्थान इति नियमसूत्रम् अत्र तु षि एव अस्ति इत्यतः उपधादीर्घः भवति द एक्साम्पल् आफ् दिस् इस् अ कौण्टर् एक्साम्पल् ऐ मीन् द एक्चुवल् एक्साम्पल् द कौण्टर् एक्साम्पल् इट् सीन् पुल्लिङ्ग दण्डी दण्डिनौ दण्डिनः तत्र उपधादीर्घः न भवति दण्डिनौ दण्डिनः अत्र तु शौ भवति इति उक्तत्वात् इन्हन् पुरुषार्यं नाम शौ इत्यनेन उपधादीर्घः रिमेम्बर् सी उपधादीर्घ अप्लै सर्वनामस्थाने सम्बुद्धौ वितौट् थिङ्किङ्ग् किन्तु अत्र नियमसूत्रम् अस्ति इत्यतः अनेनैव उपधादीर्घः करणीयः दण्डि दण्डिनी दण्डिनि दण्डि दण्डिनी दण्डीनि दण्डिना दण्डिभ्यां दण्डिभिः दण्डिना अगादिषु प्रत्ययेषु किमपि विशिष्टं कार्यं नास्ति फलादिषु प्रत्ययेषु फलसंज्ञा अस्ति इत्यतः नलोपः प्रातिपदिकान्तस्य इत्यनेन मकारस्य लोपः भवति दण्डिभ्यां दण्डिभिः दण्डिने दण्डिभ्यां दण्डिभ्यः दण्डिनः दण्डिभ्यां दण्डिभ्यः दण्डिनः दण्डिनोः दण्डिनां दण्डिनि दण्डिनोः दण्डिषु नकारस्य लोपे कृते सकारस्य षत्वम् नकारान्तः नपुंसकलिङ्गः स्रग्विन् शब्दः स्रक् अस्य अस्ति इति स्रग् इत्यस्य माला इत्यर्थः स्रग् अस्य अस्ति इति स्रग्विन् इत्यस्ति अस्माया मेधास्रजो विनि इत्यनेन स्रज् इत्यस्मात् स्रज् धातोः स्रज् इति प्रातिपदिकस्यैव तद्धितः अयम् विनि प्रत्ययः क्रियते इह इनः अनर्थकत्वेऽपि वै दीक्षित टेक् दिस् फार्म् इस् आल्सो इम्पोर्टेण्ट् बिकास् रघ्विन् All forms are like bending. The forms Sragvi, Sragvino, Sragvinaha iti Vandin Shabdavadeva Rupani Bhavandi. Kimartham Dattam iti Drashtavyam. Atrapi Inhan Pusha Aryamnam Shau iti Bhavati. Iti Darshayitum Eva Dikshitai Ayam Shabdaha Sikriyate. Iha Inaha Anartha Dattvepi. Now the question is, do we take this as in or not? Dandin ityatra in ityeva pratyaha. Ini pratyaha ikarasya anubandha kamati in ityeva pratyaha. Tatra inhan pusharyam nam shau ityasya prasaktihi bhavati. Atra tu sragvin ityatra vin pratyaha asti. Vin pratyasya in tvena grahanam astiva nava iti prashna. Should we consider this as in or not? Inhan posha adhyam naam shum ityasakim ujjate, inhan taha yadi asti, tarhi shaveva padhani taha iti niyamaha. Hinanim sragvin iti inhan taha uta na iti prashnaha. Should we consider sragvin as inhanta or not? The reason for the question is, asthavad grahane nanasthakasya grahanam iti paribhasha asti. You studied this paribhasha earlier. Sandhi prakarane eva adhitam. Arthavad grahane anarthatasya grahanam na ki. Udaharanatham idani atra in ityasya. In ityasya arthavadvam asti. Dandin ityasya in pratyayasya arthavadvam asti. Tadasya asti tadasya asmin asti ityasya eva pratyaha. Ataha in pratyayasya arthavadvam asti. Vin pratyayetu. When you are doing vin pratyaya, the in part of it is anarthaka. Vin iti sampurnasya pratyasya arthavatvam asti. Hindu vinaha ekadeshasya inaha arthavatvam nasti. The in case of dandin is arthavan. It has its own meaning. It carries its own meaning. Hindu vin ityatra, sragvin ityatra, vin pratyasya iva arthavatvam asti, natu inaha. This, the in part of it does not carry a separate meaning. The vin pratyaya has its meaning. Hindu, tasya yaha bhagaha in, tasya arthavatvam nasti. Right? Arthavat grahane nanastakasya grahanam iti paribhashaya, yatra inaha arthavatvam asti. Sar sakshat in pratyaha, tatraiva inhan bhusharyam namshau ityasya pravartihi bhave, anarthakasya grahanam na bhave. Yadi anarthakasya grahanam nasti, tadhi sragvin ityatra inhan posharyam namshau ityasya pravrattihi na bhavati. Yadi na bhavati, tadhi kim rupam syat? Sragvin au ityatra api sarvanamasthane sa sambuddhau ityanena upadhadirthaha syat iti akshepaha. You understand the problem? Sragvin is vinanta. Dandin is inanta. Whereas sragvin is vinanta. Yatra inhan tattvam, tatra inhan pusharyam namshau iti padhadithaha bhavati. Yatra vinnan tattvam asti, tatra arthavad grahane nanarthakasya grahanam iti paribhashaya. Grahanabhave, vinaha intvena grahanabhave, atra inhan pusharyam namshau iti niyamaha na bhavet iti akshepaha. Is that clear? Is the question clear? We'll see what is the answer next. If the question is clear. Asko. Tadhikim uttaram kim ityukte. Anina usman grahanani arthavatacha anarthakena tadanta vidhim bodhayanti. Ili anya paribhasha. So there is another paribhasha which says it is an exception to arthavat grahana. Arthavat grahane nanarthakasya grahanam aninasman grahanani arthavatacha anarthakena cha tadanta vidhim prayojayanti iti va bodhayanti iti va. An, in, as, man grahanani. So wherever Panini mentions an as in case of say allopanaha, in as in case of inhan bhoshadhyam namshu, as, there are cases where you have as, atva sandasyata adhatoho and man manaha ityeva sutrama. So wherever Panini uses these things, an, in, as and man, अर्थवता च अनर्थकेन च तदंत विधि बोधयन्ति. सो इन दोस केसेस वी कंसीडर बोथ अर्थवत एंड अनर्थवत. अत्र इन ग्रहणम अस्ति अतः विन प्रत्ययस्य अपि यद्यपि विन प्रत्यये इनः अनर्थकत्वं तथापि तस्य इन्नन्तत्वेन ग्रहणं भवति इति अनया परिभाषया बोध्यते. अतः इह इनः अनर्थकत्वेपि इवन दो सृग्विन् इत्यत्र इनः अर्थवत्त्वं नास्ति तथापि इन्हन् इत्यत्र ग्रहणं भवत्येव. इट् विल् बि ट्रीटेड् एस् इन्नन्त अनिनस्मन् इति वचनात्. सो दिस् इस् फ्रोम् द व्याख्यान बालमनोरमा. सो दट् इस् अनिनस्मन् ग्रहणानि अर्थवता च अनर्थकेन च तदन्तविधिं बोधयन्ति. सो टु इलस्ट्रेट् दट् पायिण्ट् दीक्षित गिव्स् द सृग्विन् वर्ड् सृग्विन् these parivashas they are not given as a list in the Komudi. Komudyam tu yatra avashyakata tatraiva granam bhavati. So Dikshita mentions those wherever he needs it. So for a list of parivashas we have to go to granthas like Paribhashendra Shekhara. Paribhashendra Shekhara is one of the most popular books regarding paribhasha, but there are different pakshas, I mean there are different compilations of paribhasha also. But Paribhashendra Shekhara is the standard one which is considered these days. So there we will have find the complete, he deals with them, all aspects of a Paribhasha. That is, he tells why do we need the Paribhasha, what is the example of the Paribhasha, so does the Paribhasha exist or what is the Pramana. I mean, many of these Paribhashas, they might not be directly told even in the Mahabhashya. Some Paribhashas are directly given in the Mahabhashya, that is the Bhashyakara himself gives the paribhasha vocally, but sometimes he does not give them directly. So indirectly they are derived from various sources. So how do we derive the paribhasha and what are the specialties of the paribhasha? Anitya, anitya. So there is a complete discussion of paribhasha in Paribhasha Vishnaka. So in the Kaumudi occasionally he refers or draws from those paribhashas. So now, so the Sragvin, Dikshita's examples always, he does not tell everything explicitly. He just says, Dandi Dandinav Dandina, Dandi Dandini Dandini, Sragvi Sragvini Sragvini. So why the second example? Dikshita never gives a second example of the same type. If there is no difference, he does not give an example of the same type unless there is a reason. Okay. So the reason why he is taking a second example of the same type, Rupe Bhedaha Nasti, Dandivad Rupani Itseva, Himartham Punaha Uchyate Ityukte Etadartham. He has that in mind. If Vin were not considered as in, they should have been Upadhadidha even in Au. Or not in Au, actually the Rupa does not, because Au does not have Sarvanamasthana here. But the Dirgha Sutra in Sragvini would have been Sarvanamasthane Sasambuddho. Atra tu inhan poshagyam namshau ittenenayo upadha dirgha bhavati iti darshayitu dandivat rupani. There is no difference in rupa. But because vin is also considered as in. Sragvi, Sragvini, Sragvini. Evan, nakarantaha napumsakalindaha vagmin shabdaha. वाचो ग्मीः इत्यनेन ग्मिनि प्रत्ययान्त. द प्रत्यय इज ग्मिनि. सो वाग्मि वाग्मिनि वाग्मिनि अत्रापि दण्डिवद् रूपाणि. इवन दिस इज कन्सिडर्ड एज इन्नन्त. सिंस देयर इज इन एट द एंड इन्हन् पुरुषार्यम् नाम शौ इत्यनेन शौ परे एव उपधादीर्घः. ऑलवेज रिमेम्बर वाग्मि इज spelt with two gakaras. Okay, because the pratyaya itself is gvin and the gakara there does not get its samya. Lashaku atadhyate. Tadhita pratyaya iti karanena gakara se its samya nasti lopaha api nasti vagmi iti gakara dvayam bhavati. Okay, I think we'll stop here. And there are a few more nakarantas. We'll see them in the next class.
येनाक्षरसमां नायम् अधिगम्य महेश्वरात् रत्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः मुनित्रयम् नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते।